इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका रचा झा। अथ वार्ताः। केन्द्रीय गृहमन्त्री अमितशाहः संसूचितवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे प्रशासनेन स्वातन्त्र्यदिवसात् पूर्वमेव आईएसआई इत्येतत् समर्थितं शहजाद भट्टी आतंकिजालं ध्वस्तीकृतम्। सः सूचितवान् यत् प्रशासनेन द्विशताधिकान् सदस्यान् गृहीत्वा तस्य विध्वंसात्मकाक्रमणानां योजनाः अपि विफलीकृताः। सामाजिक संचार पटले प्रकाशिते एकस्मिन् सन्देशे सः उक्तवान् यत् सुरक्षा बलैः चतुर्दश राज्याणां विभिन्नेष् स्थलेष् समन्विताभियानानि प्रचालितानि यैः एतत् जालं ध्वस्तीकृतम्। एतत् भारतस्य आतंकवादं प्रति शून्य सहिष्णुतायाः उत्कृष्टम् उदाहरणमस्ति। सुरक्षा संस्थाभिः अस्य मासस्य द्वादश दिनांके राज्यारक्षिबलैः सह तत्क्षणं गुप्त सूचनानाम् आदान प्रदानस्य प्रणाल्याः उपयोगं कृत्वा शहजाद भट्टी जालेन सम्बद्धानां विध्वंसात्मक प्रयासानां प्रतिरोधाय समन्वितं बहुराज्यीयम् अभियानं प्रचालितम्। एतत् जालं विविधेषु आतंकिकार्येषु संलग्नम् आसीत्। झारखण्डे जेपीएससी अथ जेएसएससी चेत्येतयोः परीक्षयोः अभ्यर्थिनां चतुर्विंशति दिवसीय विरोध प्रदर्शनस्य अनन्तरं राज्य प्रशासनेन चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य जेएसएससी सीजीएल परीक्षा अथ च टीडीपीएल संस्थया आयोज्यमानाः सर्वाः प्रतियोगी परीक्षाः निरस्ताः। मुख्यमंत्री हेमंत सोरेन ह्यः सायं विशेष मन्त्रिमण्डलोपवेशनस्य अध्यक्षतां कृत्वा एतत् निर्णयम् उद्घोषितवान्। राज्य प्रशासनेन चतुर्दशाधिक द्विसहस्रतम वर्षादारभ्य झारखण्ड लोकसेवायोगेन अथ झारखण्ड कर्मचारी चयनायोगेन च आयोजितानां नियुक्ति परीक्षाणां व्यापक परीक्षणस्य अपि आदेशः प्रदत्तः। किन्तु छात्रनेता पीयूष कुमारः उक्तवान् यत् एकादशतः त्रयोदश पर्यन्तानां जेपीएससी परीक्षाणां तथा केन्द्रीयान्वीक्षणाभिकरणस्य अन्वेषणात् सम्बद्ध प्रदर्शनकारिणां याचनाः अद्यापि विचाराधीनाः सन्ति। प्रदर्शनकारिणः छात्राः उक्तवन्तः यत् ते स्वीया अवशिष्ट याचना विषये चर्चां करिष्यन्ति तथा अग्रिम कार्याचरण विषये अपि निर्णयं करिष्यन्ति। दिल्ली प्रशासनेन चरणबद्ध रीत्या स्नातक स्नातकोत्तर अतिविशेषज्ञता स्तरीय चिकित्सकीय शिक्षा संस्थानानां संख्यां वर्धयित्वा राष्ट्रिय राजधान्यां चिकित्सा शिक्षायाः क्षमतां वर्धयितुं सज्जः अस्ति। अस्य योजनायाः अन्तर्गतं प्रशासनेन त्रिमुखी कार्यनीतिः स्वीकृता अस्ति। अस्यां नवसंस्थानां संस्थापना, विद्यमानसंस्थानां विस्तारः तथा स्नातकोत्तर उन्नत चिकित्सकीय कार्यक्रमाणां विस्तारश्च सम्मिलिताः सन्ति। केरले विजिंजम समुद्रपत्तनात् प्रत्यक्ष निर्यातः आयातश्च अद्य आरभ्यते। मुख्यमंत्री वीडी सतीशन प्रातः पादोन एकादशवादने सेवायाः उद्घाटनं करिष्यति। भारतर्तु विज्ञान विभागेन अद्य झारखण्डे अतिवृष्टिमालक्ष्य रक्तवर्णपरा संचेतना प्रसारिता। ऋतु विभागेन अद्य बिहार छत्तीसगढ़ पूर्व मध्य प्रदेश हिमाचल प्रदेश ओडिशा पश्चिमोत्तर प्रदेशानां च विभिन्नेष् भागेष् अतिवृष्टेः संभावना पूर्वानुमानिता। बैडमिंटन क्रीडायां भारतस्य आयुष शेट्टी नवदिल्ल्यां आयोजितायां बीडब्ल्यूएफ बैडमिंटन विश्व स्पर्धायां पुरुषाणाम् एकल वर्गस्य प्रथम चरणे विश्वस्य प्रथम क्रमांकितं वर्तमान विजेतारं च चीन देशीयं शी यू क्यूई इत्येनं पराजित्य विजयम् अवाप्तवान्। तत्रैव पीवी सिंधुः तथा महिलानां युगलवर्गस्य भारतीय युगलं त्रिसा जौली गायत्री गोपीचन्दः अपि द्वितीय चरणे प्रविष्टे। इति वार्ताः।